अथ संकीर्ण वर्गः प्रकृति प्रत्ययार्थाद्यैः संकीर्णे लिंगमुन्नयेत् कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः साकल्यासंगवचने पारायणतुरायणे यदृच्छास्वैरिता हेतुशून्यात्वास्था विलक्षणम् शमथस्तु शमःशान्तिः दान्तिस्तु दमथो दमः अवदानं कर्मवृत्तम् काम्यदानं प्रवारणम् वशक्रियासंवननम् मूलकर्म तु कार्मणम् विधूननम् विधुवनम् तर्पणम् प्रीणनावनम् पर्याप्ति स्यात् परित्राणम् हस्तवारणमित्यपि सेवनम् सीवनम् स्यूतिः विदरस्फुटनम् भिदा आक्रोशनमभीषङ्गः संवेदो वेदनानना सम्मूर्च्छनमभिव्याप्तिः याच्ञाभिक्षार्थनार्दना वर्धनम् छेदनेऽथद्वे आनन्दनसभाजने आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया ग्रहे ग्राहो वशः कान्तो रक्ष्णस्त्राणे रणः क्वणे व्यधो वेधे पचापाके हवो हूतौ वरो वृतौ वोषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवस्रवे येधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ समा प्रसूतिः प्रसवेश्च्योते प्राघारः क्लमथः क्लमे उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये क्षिपायाम् क्षेपणम् गीर्णिः गिरौ गुरणमुद्यमे उन्नाय उन्नये श्रायः श्रयणे जयने जयः निगादो निगदे मादः मद उद्वेग उद्भ्रमे विमर्दनम् परिमलः अभ्युपपत्तिरनुग्रहः निग्रहस्तद्विरुद्ध स्यात् अभियोगस्त्वभिग्रहः मुष्टिबन्धस्तु सङ्ग्राहः डिम्बेडमरविप्लवौ बन्धनम् प्रसितिश्चारः स्पर्शस्प्रष्टोपतप्तरी निकारो विप्रकारः स्यात् आकारस्त्विङ्ग इङ्गितम् परिणामो विकारो द्वे समे विकृतिविक्रिये अपहारस्त्वपचयः समाहारः समुच्चयः प्रत्याहार उपादानम् विहारस्तु परिक्रमः अभिहारोऽभिग्रहणम् निर्हारोऽभ्यवकर्षणम् अनुहारोऽनुकारः स्यात् अर्थस्यापगमे व्ययः प्रवाहस्तु प्रवृत्ति स्यात् प्रवहो गमनम् बहिः वियामो वियमो यामः यमः संयामसंयमौ हिंसाकर्माभिचारः स्यात् जागर्या जागराद्वयोः विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया विधुरन्तु प्रविश्लेषे अभिप्रायश्छन्द आशयः सङ्क्षेपणम् समसनम् पर्यवस्था विरोधनम् परिसर्या परीसारः स्यात् आस्यात्वासना स्थितिः विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः संवाहनम् मर्दनम् स्यात् विनाशस्याददर्शनम् संस्तव स्यात् परिचयः प्रसरस्तु विसर्पणम् नीवाकस्तु प्रयाम स्यात् सन्निधिः सन्निकर्षणम् लवोऽभिलावो लवने निष्पावः पवने पवः प्रस्तावस्यादवसरः त्रसरः सूत्रवेष्टनम् प्रजनस्यादुपसरः प्रश्रयप्रणयौ समौ धीशक्तिर्निष्क्रमोऽस्त्रीतु सङ्क्रमो दुर्गसञ्चरः प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमस्यादुपक्रमः स्यादभ्यादानमुद्धात आरम्भः सम्भ्रमस्त्वरा प्रतिबन्धः प्रतिष्टम्भः अवनायस्तु निपातनम् उपलम्भस्त्वनुभवः समालम्भो विलेपनम् विप्रलम्भो विप्रयोगः विलम्भस्त्वतिसर्जनम् विश्रावस्तु प्रतिख्यातिः अवेक्षा प्रतिजागरः निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ संवीक्षणम् विचयनम् मार्गणम् मृगणामृगः परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् निर्वर्णनम् तु निध्यानम् दर्शनालोकनेक्षणम् प्रत्याख्यानम् निरसनम् प्रत्यादेशो निराकृतिः उपशायो विशायश्च पर्यायशयनार्थकौ अर्तनम् च ऋतीया च हृणीया च घृणार्थकाः स्याद्व्यत्यासो विपर्यासः व्यत्ययश्च विपर्यये पर्ययोऽतिक्रमस्तस्मिन् अतिपात उपात्ययः प्रेषणम् यत् समाहूय तत्र स्यात् प्रतिशासनम् ससंस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् निधाय तक्ष्यते यत्र काष्ठे काष्ठम् स उद्धनः स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते आविभो विध्यते येन तत्र विश्वक्समे निघः उत्कारश्च निकारश्च द्वौधान्योत्क्षेपणार्थकौ निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु आरत्यवरतिविरतय उपरामेथास्त्रियान्तु निष्ठेवः निष्ठ्यूतिर्निष्ठेवनम् निष्ठीवनमित्यभिन्नानि जवने ज्यूतिः सातिस्तु अवसाने स्यादथ ज्वरे जूर्तिः उदजस्तु पशुप्रेरणम् अकरणिरित्यादयः शापे गोत्रान्तेभ्यस्तस्य वृन्दम् इत्यौपगवकादिकम् आपूपिकम् शाष्कुलिकम् एवमाद्यमचेतसाम् माणवानाम् तु माणव्यम् सहायानाम् सहायता हल्याहलानाम् ब्राह्मण्य वाडव्ये तु द्विजन्मनाम् द्वे पर्शुकानाम् पृष्ठानाम् पार्श्वम् पृष्ठ्यमनुक्रमात् खलानाम् खलिनी खल्यापि अथ मानुष्यकम् नृणाम् ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथक् अपि साहस्रकारीष चार्मणाथर्वणादिकम् इति सङ्कीर्णवर्गः।